तो युद्ध परिश्रान्तं समरे चिन्तयास्थितं रावणं चागतो दृष्ट्वा युद्धाय समुपस्थितं दैवतश्च समागम्य द्रष्टुमभ्यागतोऽरुणम् उपागम्य ब्रवीत् रामम् अगस्त्यो भगवान् ऋषि सनातनम् येन सर्वनरेन वत्स समरे विजयिष्यसि आदित्या हृदयं पुण्यं सर्वशत्रुविनाशनम् जयावहं जपे नित्यम् अक्षया परमं शिवम् शोक प्रशमानम् आयुर्वर्धनमुत्तमम् रश्मिमन्तं समध्यन्तं देवासुरा नमस्कृतं पूज्यस्व विवस्वन्तं भास्करं भुवनेश्वरम् देवात्मको हेश तेजस्वी रश्मि भावना एष देवासुरगणलोकान् पाति गभहस्तिभिः एष ब्रह्मा च विष्णुश्च शिवः स्कन्ध प्रजापतिः महेन्द्रो धनद कालो यमः सोमो हयपाम्पतिः तेजसामपि तेजस्वी द्वादश आत्मन नमोस्तुते नमः पूर्वाय गिरये पश्चिमाय त्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः। जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः। नमः उग्राय वीराय सारंगाय नमो नमः। नमः पद्मा प्रबोधाय मार्तंडाय नमो नमः। नच्युतेशाय सूर्यायादित्या वर्चसे भास्वते सर्वभक्षाय रुद्राय विपुषे नमः। तमोग्नाय हिमाग्नाय शत्रुघ्नाय मितात्मने कृतज्ञाय देवाय ज्योतिषां पतये नमः। चामीकराभाय वहन्ये विश्वकर्मणे नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे नाशयत्येष वैभूतं तदेव सृजति प्रभु पायत्येष तपत्येष वर्षतेषागभस्तिभिः। सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां वेदाश्चक्रतवश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रवि प्रभु। येनामापत्सु कृष्टेषु कांतारेषु भयेषु च कीर्तयन् पुरुषः कश्चन नावसीदति राघव। पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिं ये तत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि। अस्मिन् क्षणे महाबाहो रावणं तं वधिष्यसि एवमुक्त्वा तदागस्त्यं जगाम च यथागतम्। एतच्छ्रुत्वा महातेज नष्टशोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान्। आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् तिराचम्याशुचिर्भूत्वा धनुराधाय वीर्यवान्। रावणं प्रेक्ष्यष्टात्मा युद्धाय समुपागतं सर्वयत्नेन वधे तस्य धृतो भवत् अथ रविरवदन् रिक्षारमम् मुदित मनः परामम् प्राहिष्ये मनः निशिचर्पति समक्षम् विदित्वा सुरगण मध्यगतो वचस्तरे